विश्वस्य धाता पुरुषस्त्वमाद्यो अव्यक्तेन रूपेण ततं त्वयेदम् हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् हे रामकृष्ण त्वं पाशे विश्वं सृजसि त्वमेव देवो विनिहंसि सर्वं हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् कृपाकटाक्ष Gurudeva Nityam Krishna.